इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिनशर्मा। आदौ मुख्य वार्ताः। संसदः प्रावृट् सत्रम् अग्रिममासस्य एकविंशति दिनाङ्कात् समारप्स्यते। संसदीय कार्यमन्त्रिणा किरेन रिजिजू इत्यमुना प्रोदीरितं यत् प्रशासनं दिल्ली उच्च न्यायालयस्य पूर्व न्यायाधीशं यशवन्त वर्माणं विरुध्य महाभियोग प्रस्तावस्य आनयनार्थं राजनीतिक दलानां सामान्य सहमत्यै कार्यं कुर्वदस्ति। प्रधानमन्त्री नरेन्द्र मोदी तथा ऑस्ट्रेलिया देशस्य उपप्रधानमन्त्री रक्षामन्त्री रिचर्ड मार्लेसः इत्येतौ अद्य भारत ऑस्ट्रेलिया देशयोः मध्ये व्यापक सामरिक सहभागिताम् इतोप्यधिकं सुदृढयितुं विचाराणाम् आदान प्रदानं कृतवन्तौ। भारतेन एशियाई विकास वित्तालयाः पाकिस्तानस्य वित्तीय सहायता प्रदानेन संसाधनानां दुरुपयोगः भविष्यतीति सञ्चेतिताः। असमराज्ये जलाप्लावेन एकविंशति जनपदेषु 30,000+ जनाः प्रभाविताः, अपि च 25,000+ नॉर्वे चतुरङ्गक्रीडायां भारतीय क्रीडकः अर्जुन एरेगेसी इत्येषः गतरात्रौ अमेरिकीय क्रीडकं फेबियानो कारुआना इत्यमुं पराजित्य अष्टमे चक्रे विजितवान्। अथ वार्ताः विशदीकृत्य। अद्य प्रशासनेन आगामि मासस्य 21 दिनाङ्कात् आरभ्यमाणस्य संसदः प्रावृट सत्रस्य सूचना प्रसारिता। एतद् विपक्षिदलानाम् अनुरोधेन सिन्दूराभियानमधिकृत्य चर्चायै संसदः विशिष्ट सत्रम् आहूतमस्ति। नवदिल्ल्यां वार्ताहरैः सह वार्तालापं कुर्वन् संसदीय कार्यमन्त्री किरेन रिजिजुः अवदत् यत् अस्य सत्रस्य समापनम् अगस्तमासस्य 12 दिनाङ्के भविष्यति। पहलगामे जाते आतंक्याक्रमणे 25 भारतीयाः, एकः नेपाली नागरिकः च मृतः। तदनन्तरं भारतेन आरब्धस्य सिन्दूराभियानस्य अनन्तरं एतत् प्रथमं संसद सत्रं भविष्यति। भारतीय सशस्त्रसेनायाः प्रतिकारात्मक कार्याणि पाकिस्तानेन अधिकृत जम्मूकश्मीरे च आतंकस्थलेषु प्रहारं कृत्वा शततोप्यधिकाः आतंकवादिनः मारिताः आसन्। पहलगामातंक्याक्रमणस्य अनन्तरं विभिन्न राजनैतिकदलानां नेतृणाम् उपस्थितौ सर्वदलीयोपवेशनमपि सर्वकारेण आयोजितम् आसीत्। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्यां केन्द्रीयमन्त्रिपरिषदः उपवेशनस्य अध्यक्षतां कुर्वन्नस्ति। पहलगामे आतंक्याक्रमण सिन्दूराभियानयोः अनन्तरम् इदं प्रथमम् उपवेशनमस्ति। संसदीय कार्यमन्त्रिणा किरेन रिजिजुः इत्यमुना प्रोदीरितं यत् प्रशासनं दिल्ली उच्च न्यायालयस्य पूर्व न्यायाधीशं यशन्त वर्माणं विरुध्य महाभियोग प्रस्तावस्य आनयनार्थं राजनीतिक दलानां सामान्य सहमत्यै कार्यं कुर्वदस्ति।
In this matter, there is no scope for taking a political stance by each party. The matter is very serious and it is extremely important for the nation. So when we discuss about corruption, whether it's corruption in judiciary or anywhere, it has to be taken in best consideration of the nation. We are not going to have a partisan view on that.
प्रधानमन्त्री नरेन्द्र मोदी तथा ऑस्ट्रेलिया देशस्य उपप्रधानमन्त्री रक्षामन्त्री रिचर्ड मार्लेसः इत्येतौ अद्य भारत ऑस्ट्रेलिया देशयोः मध्ये व्यापक सामरिक सहभागिताम् इतोप्यधिकं सुदृढयितुं विचाराणाम् आदान प्रदानं कृतवन्तौ। ऑस्ट्रेलिया देशस्य उपप्रधानमन्त्री अद्य अपराह्णे नवदिल्ल्यां प्रधानमन्त्रिणं मोदिनं मिलित्वा अतिसीम्नि आतंकवाद विरुद्धं भारतस्य युद्धे स्वदेशस्य समर्थनं प्रदत्तवान्। उभौ नेतारौ रक्षा औद्योगिक सहकार्यम् आपूर्ति श्रृंखला महत्वपूर्ण खनिजाः प्रौद्योगिकी इत्यादिषु प्रमुखक्षेत्रेषु सहकार्यं वर्धयितुं महत्वं रेखाङ्कितवन्तौ। तौ पुनः पुष्टिं कृतवन्तौ यत् स्थिरस्य सुरक्षितस्य समृद्धस्य च हिन्द प्रशान्तयोः दृष्टिकोणयोः द्विपक्षीय सहकार्याणां मार्गदर्शनं निरन्तरं क्रियते। सद्य एव संघीय निर्वाचने ऑस्ट्रेलिया देशस्य लेबर पार्टी इति दलस्य ऐतिहासिक विजयाय प्रधानमन्त्री मोदी तस्य अभिनन्दनं कृतवान्। अस्य वर्षस्यान्ते भारते आयोक्ष्यमाणाय वार्षिक शिखर सम्मेलनाय सह ऑस्ट्रेलिया देशस्य प्रधानमन्त्रिणं एन्थोनी एल्बनीज इत्यस्मै आमन्त्रितवान्। अद्य भाजपादलेन सिन्दूराभियानस्य कथितालोचनायै कांग्रेसदलस्य वरिष्ठनेतुः राहुलगान्धिनः उपरि लक्ष्यं साधितम्। नवदिल्ल्यां वार्ताहरान् सम्बोधयन् भाजपाप्रवक्ता सुधांशुत्रिवेदी इत्येषः प्रोक्तवान् यत् येन प्रकारेण राहुलगान्धिना सशस्त्रबलानां सफलतायाः तुलना आत्मसमर्पणेन सह कृता तेन तेषां शौर्यस्य बलिदानस्य च स्पष्टापमानं प्रत्यक्षीभवति। तेन कांग्रेसदलस्योपरि प्रश्नोत्थापयता कथितं यत् षड्विंशति एकादशेति मुम्बई आक्रमणानन्तरं यूपीआई सर्वकारेण कथितमासीत् यत् पाकिस्तानेन सह समग्रवार्ता आतंकवादी गतिविधिभिः नैव प्रभावितो भविष्यति।
राहुल गांधी जी ने जिस प्रकार से हमारी सेना के द्वारा दिखाए गए अप्रतिम शौर्य और सेना के अधिकारियों द्वारा, जिसमें डायरेक्टर जनरल मिलिट्री ऑपरेशन, डायरेक्टर जनरल एयर ऑपरेशन, डायरेक्टर जनरल नेवी ऑपरेशन, उन्होंने जिस तरीके से ऑपरेशन सिंदूर की सफलता का विवरण दिया है, उसको सरेंडर से तुलना करना ये दर्शाता है कि ये मानसिकता कितनी रोगी और कितनी खतरनाक हो।
संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। भारतेन एशियाई विकास वित्तालयः पाकिस्तानाय वित्तीय सहायता प्रदानेन संसाधनानां दुरुपयोग भविष्यतीति संचेतितः। सूत्रानुसारं भारतेन एडीबी संसाधनानां संभावित दुरुपयोग विषये गहनचिन्ता प्रकटिता। भारतेन एतत् प्रकाशितं यत् सकलान्तरिकोपादानत्वेन पाकिस्तानस्य करसंग्रहः 18,2000 वित्तीयवर्षे 13.05% त्रयोविंशत्यधिक 2000 वित्तीयवर्षे 9.2% समभवत्। नवदिल्ली इत्यनेन पाकिस्तानस्य वर्तमान शासन प्रणालीमालक्ष्य आपत्तिः प्रकटीकृता। असमराज्ये जलाप्लावेन 21 जनपदेषु 30,000+ जनाः प्रभाविताः। सहैव राज्ये मृतकानां संख्या समेध्य 12 समभवत्। विगतेषु 24 होरासु राज्ये जलाप्लावेन 6 मृत्युमुपगताः। सहैव राज्ये 15,000+ ग्रामाः जलाप्लावेन प्रभाविताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्यां केन्द्रीय मन्त्रिपरिषदः उपवेशनस्य आध्यक्ष्यं विधास्यति। प्रधानमन्त्री नरेन्द्र मोदी अस्य मासस्य 6 दिनांके जम्मू कश्मीरस्य यात्रां करिष्यति। अत्रावसरे सः 44,000+ विकास परियोजनाः राष्ट्राय समर्पयिष्यति। क्षेत्रे सम्पर्क समेधनार्थं प्रधानमन्त्री चेनाब रेलसेतोः अंजी सेतोश्च उद्घाटनं विधास्यति। रक्षामन्त्री राजनाथ सिंहः सहैव आस्ट्रेलियायाः उपप्रधानमन्त्री रक्षामन्त्री रिचर्ड मार्लेसः इत्यनयोः मध्ये अद्य नवदिल्ल्यां उपवेशनं समभवत्। उपवेशनावधौ आस्ट्रेलिया देशस्य उपप्रधानमन्त्रिणा आतंकवादं विरुध्य भारतेन सह ऐक्यं प्रकटितवान्। तेन सबलं प्रोक्तं यत् भारत आस्ट्रेलिया देशौ रक्षा समुद्री सुरक्षा प्रकरणेषु च परस्पर सहयोगिनौ स्तः।
Condolences to India for all of those who were lost in Pahalgam terrorist attack. We want to make clear that Australia stands with India and all countries in combating terrorism. We acknowledge and we welcome the stoppage in military activity. We see this as an act of Indian leadership. But we will continue to work with India as we combat terrorism in all its forms.
अद्य आरब्धायां वार्षिक 5-दिवसीय हज यात्रायां भारतं समेत्य विश्वस्य प्रायः 18,00,000+ तीर्थयात्रिणः सऊदी अरब देशस्य मीना नगरे सम्प्राप्स्यन्ति। 25,000+ नॉर्वे चतुरंग क्रीडायां भारतीय क्रीडकः अर्जुन एरिगेसी इत्येषः गतरात्रौ अमेरिकीय क्रीडकं फेबियानो कारुआना इत्यमुं पराजित्य 8 चक्रे विजितवान् इति वार्ताः।